ओम नमो भगवते वासुदेवाय। अथ चतुर्थोऽध्यायः। श्रीशुक उवाच। बहिरन्तः पुरद्वारः सर्वाः पूर्ववदावृताः। ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः। ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत् आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते। सतल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वलः। सूतिगृहमगात्तूर्णम् प्रस्खलन्मुक्तमूर्धजः। तमाह भ्रातरम् देवी कृपणाकरुणम् सती। स्नुषेयम् तव कल्याण स्त्रियम् माहन्तुमर्हसि। बहवो हिंसिता भ्रातः शिशवः पावकोपमाः। त्वया दैव निसृष्टेन पुत्रिकैका प्रदीयताम्। नन्वहम् ते यवरजा दीनाहतसुता प्रभो। दातुमर्हसि मन्दाया अङ्गे माम् चरमाम् प्रजाम्। श्रीशुक उवाच। उपगुह्यात्मजामेवम् रुदत्यादीनदीनवत् याचितस्ताम् विनिर्भट्स्य हस्तादाचिच्छिदे खलः। ताम् गृहीत्वा चरणयोर्जातमात्राम् स्वसुः सुताम् अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृदः। सा तद्धस्तात् समुत्पत्य सद्यो देव्यम् वरम् गता। अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा। दिव्यस्रगम्बरालेप रत्नाभरणभूषिता। धनुःशूलेषु चर्मासि शङ्खचक्रगदाधरा। सिद्धचारणगन्धर्वैरप्सरः किन्नरोरगैः। उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत्। किम् मया हतया मन्द जातः खलु तवान्तकृत्। यत्र क्व वा पूर्वशत्रुर्माहिंसीः कृपणान्वृथा। इति प्रभास्यतम् देवी माया भगवती भुवि। बहुनामनिकेतेषु बहुनामा बभूवः। तयाभिहितमाकर्ण्य कंसः परमविस्मितः। देवकीम् वसुदेवम् च विमुच्य प्रश्रितो ब्रवीत्। अहो भगिन्यहो भाम मया वाम् बत पाप्मना। पुरुषादैवापत्यम् बहवो हिंसिताः सुताः। सत्त्वहम् त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत् खलः। तान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन्। दैवमप्यनृतम् वक्ति नमर्त्या एव केवलम्। यद्विश्रम्भादहम् पापः स्वसुर्निहतवाञ्छिषून्। मा शोचतम् महाभागावात्मजान् स्वकृतम् भुजः। जन्तवो न सदैकत्र दैवाधीनास्तदासते। भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च। नायमात्मा तथैतेषु विपर्येति यथैव भूः। यथा नैवं विदो भेदो यथात्मविपर्ययः। देहयोगवियोगौ च संसृतिर्न निवर्तते। तस्माद्भद्रे स्वतनयान्मया व्यापादितानपि। मानुषोचयतः सर्वः स्वकृतम् विन्दते वशः। यावद्धतोऽस्मि हन्तास्मीत्यात्मानम् मन्यते स्वदृक् तावत्तदभिमान्यज्ञो बाध्यबाधकतामियात्। क्षमध्वम् मम दौरात्म्यम् साधवो दीनवत्सलाः। इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रो रथाग्रहीत्। मोचयामास निकटात् विश्रब्दः कन्यका गिरा। देवकीम् वसुदेवम् च दर्शयन्नात्मसौहृदम्। भ्रातुः समनुतप्तस्य क्षान्त्वा रोषम् च देवकी। व्यसृजत् वसुदेवश्च प्रहस्यतमुवाचः। एवमेतन्महाभाग यथा वदसि देहिनाम्। अज्ञानप्रभवाहन्धेः स्वपरेतिभिदायतः। शोकहर्षभयद्वेषलोभमोहमदान्विताः। मिथोघ्नन्तम् न पश्यन्ति भावैर्भावम् पृथग्दृशः। श्रीशुक उवाच। कंस एवम् प्रसन्नाभ्याम् विशुद्धम् प्रतिभाषितः। देवकी वसुदेवाभ्यामनुज्ञातो विशद्गृहम्। तस्याम् रात्र्याम् व्यतीतायाम् कंस आहूय मन्त्रिणः। तेभ्य आचष्ट तत्सर्वम् यदुक्तम् योगनिद्रया। आकर्ण्य भर्तुर्गदितम् तमूचुर्देवशत्रवः। देवान् प्रतिकृतामर्षा दैतेयानातिकोविदाः। एवम् चेत्तर्हि भोजेन्द्रपुरग्रामव्रजादिषु अनिर्दशान्निर्दशांश्च हनिष्यामोऽद्य वैशिषून्। किमुद्यमैः करिष्यन्ति देवाः समरभीरवः। नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव। अस्य तस्ते शरव्रातैर्हन्यमानाः समन्ततः। यजीविषव उत्सृज्य पलायनपराययुः। केचिद्प्राञ्जलयो दीनान्यस्त्रशस्त्रादिवौकसः। मुक्तकच्छशिखाः केचिद्भीतास्मैति वादिनः। नत्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् हंस्यन्यासक्तविमुखान् भग्नचापान् अयुध्यतः किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः रहोजुषा किं हरिणा शम्भुना वा वनौकसा किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता तथापि देवाः सापत्न्यान्नोपेक्ष्या इति मन्महे ततस्तन्मूलखनने नियुङ्क्ष्वास्माननुव्रतान् यथा मयोऽङ्गे समुपेक्षितो नृभिर्न शक्यते रूढपदश्चिकित्सितुम् यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान् बद्धबलो न चाल्यते मूलम् हि विष्णुर्देवानाम् यत्र धर्मः सनातनः तस्य च ब्रह्मगो विप्रास्तपो यज्ञासदक्षिणाः तस्मात् सर्वात्मना राजन् ब्रह्मणान् ब्रह्मवादिनः तपस्विनो यज्ञशीलान् गाश्च हन्मोहविर्दुघाः विप्रा गावश्च वेदाश्च तपः सत्यम् दमः शमः श्रद्धादया तितिक्षा च कृतवश्च हरेस्तनूः स हि सर्वसुराध्यक्षो यसुरद्विद्गुहाशयः तन्मूला देवताः सर्वाः सेश्वराः स चतुर्मुखाः अयम् वै तद्वधोपायो यदृषीणाम् विहिंसनम् श्रीशुक उवाच एवम् दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः ब्रह्महिंसाम् हितम् मेने कालपाशावृतोऽसुरः सन्दिश्य साधु लोकस्य कदनेकदनप्रियान् कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ते वै रजः प्रकृतयस्तमसा मूढचेतसः सताम् विद्वेषमाचेरुरारादागतमृत्यवः आयुः श्रियम् यशो धर्मम् लोकानाशिष एव च हन्तिश्रेयांसि सर्वाणि पुंसो महदतिक्रमः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।